सर्वेषां स्वागतं वर्गम् आरम्भं कुर्मः ॐ पठामि
पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरम् संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहं संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरं संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरं हिन्दुधर्मसमाजञ्च पवित्रां संस्कृतं तथा संरक्षणनु कुर्याम विश्वं शान्तिसमन्वितम् ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ
अस्तु गतवर्गे वयम् अभ्यासपुस्तकं समापितवन्तः खलु सो अत्र वयं केचन अंशान् स्वीकृत्य पुनस्मारणं कुर्मः अहं गृहपाठरूपेण एतत् पत्रं प्रेषितवती तत् प्रथमं पठामः अस्तु अत्र अन्य के आगतवन्तः इति अस्तु कोऽपि नास्ति अस्तु सागरी भगिनी अत्र एक लघु वाक्यम् अस्ति लघु न दीर्घवाक्य अस्ति दीर्घवाक्यम् अस्ति पाठशालायाः अध्यापकः माधवः अन्य अध्यापिकया सह सप्तलेखन्यः कपाटिकातः चेन्नैनगरे शारदाविद्यालये सायङ्काले पञ्चवादने हस्तेन आनन्देन दुःखं विना चतुरस्य छात्रस्य कृते अथवा छात्रायै अपि लेखनार्थं ददाति इति एतत् वाक्ये सर्वविधविभक्तयः सन्ति एकमेकं पश्यामः प्रश्नं पृष्ट्वा अनन्तरम् उत्तरमस्ति अत्र उत्तरस्य प्रश्नं पृष्ट्वा अनन्तरं विभक्तिः का इति वदामः प्रथमम् उदाहरणार्थम् अहं लिखितवती माधवः ददाति प्रथमं ददाति इति क्रियापदस्य क्रियापदं स्वीकृत्य तत् अनुसृत्य क्रियापदस्य अनुसृत्य प्रश्नान् पृच्छामः कः ददाति माधवः ददाति कः ददाति माधवः ददाति माधवः इति प्रथमाविभक्तिरूपम् अस्तु कीदृशमाधवः whenever we describe माधवः we ask the question कीदृश अत्र पुल्लिङ्गपदं माधवः अतः कीदृशः माधवः अध्यापकः माधवः एतदपि प्रथमाविभक्तिरूपमेव अस्तु अग्रे पाठशालायाः अध्यापकः सो अत्र पाठशालायाः इति आगच्छति खलु अतः कस्याः अध्यापकः पाठशालायाः अध्यापकः इति उत्तरमस्ति कस्याः अध्यापकः इति प्रश्नः सो अत्र विभक्ति का सागरि भगिनी
अहं न जानामि भगिनि
अस्तु अहं वदामि महेश महोदय भवान् जानाति वा
आं भगिनि षष्ठी विभक्ति भगिनि
षष्ठी विभक्ति
अस्तु अस्तु
अस्तु, षष्ठी विभक्ति सम्बन्धं सूचयति.
आं भगिनि,
सम्बन्धं सूचयति. मम पुस्तकं, कस्य पुस्तकं? मम पुस्तकं. कस्याः पुस्तकं? तस्याः पुस्तकं. पाठशालायाः अध्यापकः कस्याः? षष्ठी विभक्ति. धन्यवादः महोदय. अस्तु महोदय, अन्यत् अपि करोतु. अन्य अध्यापिकया सह.
अन्य अध्यापिकया सह, तया सह प्रश्नवाचकः. विभक्ति तृतीया विभक्ति.
उत्तम. अध्यापिकया, अत्र अत्र एव प्रश्नस्य स्वरूपम् अस्ति खलु. कया सह, कया सह, अध्यापिकया सह. यथा सः इति वदामः तथा वयं जानीमः खलु. सः आगच्छति चेत्, यदा सः आगच्छति तदा तृतीया विभक्तिरूपं स्त्रीलिङ्ग. कया तृतीया विभक्तिरूपम्, अत्र तृतीया विभक्ति इति लिखामः. एकनिमिषम् अहं लिखामि. अस्तु, अत्र कया सह इति अस्ति तृतीया विभक्ति. तृतीया विभक्ति. अग्रे ज्योति भगिनी.
आम् आं भगिनि.
लेखन्यः,
केन, केन और किम्?
सो इस् जस्ट् लेखन्यः खलु.
या, लेखन्यः.
सो सो हौ डु यु से लेखन्यः? इस् इट् का आर् का? बहुवचनं खलु. काः? काः काः ददाति? लेखन्यः ददाति.
काः ददाति? प्रथमाविभक्ति भगिनि.
प्रथमाविभक्ति, प्रथमाविभक्तिरूपं. काः ददाति?
काः ददाति? लेखन्यः ददाति.
काः?
नमस्ते भगिनि.
स्वागतं.
नमस्ते भगिनि. नमस्ते भगिनि. परमेश्वरन् गिय.
परमेश्वर अस्ति. अस्तु
भगिनि.
वदतु महोदय.
लेखन्यः बहुवचनं, सोरि, लेखन्यः बहुवचनं लिखन्तु.
लेखन्यः. आर् यु केन् से किं ददाति आल्सो. किं ददाति?
द्वितीया विभक्ति. So it can be Pratama Vibhakti or Dvitiya Vibhakti, right?
I was coming to that, Bhagini. Uttama. I was coming to that. So it can be either Pratama or Dvitiya, kalo. So, so here what it is, Atra Kim Asti, Pratama Va, Dvitiya Va?
Because Dadati, what has been given, right? So it should be the Dvitiya Vibhakti.
Correct, Bhagini. It is Dvitiya Vibhakti. So Atra... coming to Srinivas Mahodaya's prashnah, it can be kim dadati if we don't know. We can say kim dadati, then the answer will be correctly lekanyah dadati. But if we say kaha dadati, that is also okay. Kaha dadati, lekanyah dadati. Okay, this is also correct. This is also correct. Astu. Srinivasa Mahodaya. Agrima.
Sapta lekanyah. So, kati lekanyah? How many?
Kati lekanyah. Kati lekanyah. So here, because lekanyah dadati, it goes with dvitiya. कति लेखन्यः ददाति? सप्तलेखन्यः ददाति. अस्तु, सविता भगिनी कपाटिकातः.
भगिनि, एकः प्रश्नम्
एकः प्रश्नः वदतु भगिनि.
एकः प्रश्नः. नौ लेखन्यः, द फार्म् इस् नाट् द्वितीया, रैट्? It is correct. The form is Prathama, isn't it?
Correct.
The form... Same with Sapta Lekanyaha. It should be Sapta, I mean, if it's in dvitiya, the form will be different, right?
Correct, correct. Form will be different. Lekanihi dadati. Correct. You're right, Bhagini.
So, that is why I had put it as Prathama. Because, and I had also, you know, I hadn't connected it with that long sentence on top. So I had said, Kaha Taha, what is this? Like that.
Okay. So you are absolutely right. I will make the correction. It is Lekanihi Eva. So it should be Lekanihi. Correct. Okay.
Dhanyavadaha Bhagini.
Thank you. It was an oversight on my part. Lekanihi Dadati. Astu. Dhanyavadaha. Astu. Kapatika Taha.
Bhagini, can I have a look at the top?
Astu. Astu. Astu.
सप्तलेखन्या कपाटिकात् कपाटिकातः सप्तलेखन्या कपाटिकात्
Actually, we don't even have to look at the sentence bhagini. Kapatikatah. So, vrikshatah phalam patati.
Yeah.
Hastatah लेखनी पतति गृहतः अहं गच्छामि उत्पीठिकातः अहं स्वीकरोमि आञ्जनेयतः सीता अङ्गुलीयकं स्वीकरोति What does तः mean?
Kapatikatah.
Kapatika is a cupboard.
Cupboard, yeah.
Kapatikatah shatikam svikaromi.
From the cupboard.
Uttamam bhagini. From the cupboard. What will be the question? Where do you come from? How will I ask that question? Bhavati kutra vasati. Bhavati. So here it has the answer here. The question and answer will have the same ending. Taha.
Uh-huh. Kaha taha kapatika.
Kutaha.
Kutaha. Okay.
Okay. Kutaha.
Kutaha?
Kapatikataha. Kutaha is the question. Kapatikataha is the answer. Sapta lekanihi kapatikataha. Kapatikataha. From. So which vibhakti is this? Panchami.
Devataha. Panchami vibhakti.
Panchami vibhakti. Yes. Panchami vibhakti. The classic Panchami Vibhakti is there will be separation. Vyogaha asti. Vyogaha. Astu bhagini.
Kapatikata is Panchami
Vibhakti. Kapatikataha. So this is a review. So it'll be good. Astu. Agrimam. Saundaram bhagini.
Yes bhagini.
Chennai Nagare.
Kutra.
Kutra. सप्तमी विभक्तेः लक्षणम् अस्ति ए इति आगच्छति पुल्लिङ्ग नपुंसकलिङ्ग स्त्रीलिङ्गे कथं भवति अस्तु लोकेशन् अण्ड् टैम् सप्तमी विभक्ति लोकेशन् अण्ड्
टैम्
अस्तु अहं सर्वाणि म्यूट् करोमि
नमस्ते भगिनि रम्या
नारायणमूर्तिमहोदय शारदा विद्यालये
भगिनि चेन्नै नगरे प्रश्नवाचि वा कस्मिन् नगरे एव भवति वा
कुत्र अपि आगच्छति महोदय कुत्र
सम्यक् वा
कस्मिन् नगरे सम्यक् एव कस्मिन् नगरे
शारदाविद्यालये
शारदाविद्यालये
कस्य विद्यालये शारदाविद्यालये
कस्मिन् विद्यालये शारदाविद्यालये
कस्मिन् विद्यालये
कस्मिन् विद्यालये कस्मिन् विद्यालये शारदाविद्यालये अथवा अथवा महोदय यु केन् से कस्मिन् विद्यालये
विद्यालये
अथवा कुत्र चेन्नैनगरे कुत्र
चेन्नैनगरे
चेन्नैनगरे कुत्र
शारदानगरे शारदाविद्यालये
चेन्नैनगरे कुत्र अथवा शारदा कस्मिन् विद्यालये यथा महेश महोदय उक्तवान् कस्मिन् नगरे चेन्नैनगरे कस्मिन् विद्यालये
शारदाविद्यालये
शारदाविद्यालये
कुत्र नगरे
न न न इफ् यु से कुत्र वि केनाट् से एनिथिङ्ग् एल्स् कुत्र चेन्नैनगरे चेन्नैनगरे कुत्र चेन्नैनगरे शारदाविद्यालये अथवा कस्मिन् नगरे चेन्नैनगरे कस्मिन् चेन्नैनगरे कस्मिन् विद्यालये
चेन्नैनगरे शारदाविद्यालये
शारदाविद्यालये अत्र विभक्ति का
सप्तमी
सप्तमी ओन्लि सप्तमी
लोकेशन्
अण्ड् टैम् सप्तमी सप्तमी विभक्ति भगिनि वदतु भगिनि
कुत्र प्रयोगं वेन् वि डू देट् देन् यु केनाट् से कुत्र विद्यालय यु ओन्लि से कुत्र
करेक्ट्
बट् वेन् यु से कस्मिन् देन् अदर्वैस् यु से कस्मिन् विद्यालये
आम्
वन्
आफ् द टु सो वेन् वि से when you say kasmin that means you already know the nagaram and it is not and it is not gramam if you have no idea then you say kutra but if we know it is a gramam we say kasmin grame if we know it is a desha we say kasmin deshe athava kutra like that kutra if you have no idea Kasmin, if you want a specific location in that place. Kasmin. Kasmin prakoshte asti bhavatyah grihe bhavati kasmin prakoshte asti. So then I will say, aham paka prakoshte, shayya prakoshte, ityadi. So that is the, so this is a kasmin is more specific. Kutra is more general.
General.
अस्तु इदानीं परमेश्वर महोदय सायङ्काले
किं समये
कस्मिन् समये सो फार् आल् सप्तमी इट् इस् कस्मिन्
कस्मिन् समये सायङ्काले सप्तमी विभक्ति
सप्तमी विभक्ति बट् इफ् यु डोण्ट् डू कस्मिन् समये वाट् इस् लैक् कुत्र
नो इट् कान्ट् बि कुत्र
इट् केनाट् बि कुत्र करेक्ट्
कति समये
नाट् कति कति इस् फार् संख्या वेन् यु हाव् टु कौण्ट् फर्गेट् द समये महोदय अत्र वेन् यूस् कस्मिन् यु स्पेसिफै रैट् नगरे कस्मिन् विद्यालये अत्र we generally don't say kasmin samaye.
Okay, kasmin kale. No,
no, it starts Kab. Okay, so it's kada.
Oh, kada. Oh, kada. Kada means when, isn't it?
When kada, okay. Dadati sayankale dadati.
Okay.
Sayankale dadati.
Saptami vibhakti.
Saptami vibhakti. Astu. Gopika bhagini, panchavadane.
Panchavadane saptami vibhakti.
Saptami.
Kada.
Saptami vibhakti. Kada.
Prashnaha kada.
Prashnah kada.
Atava kasmin samaye.
Kasmin samaye we generally don't use, but it is okay. But we generally say kada.
Kada.
So we say sayangale kada.
Sayangale kada.
Generally
sayangale kada. And very rarely we can use kasmin samaye. It is not wrong, but it is not generally used. That's all. It is okay. It is correct. Sayankale kasmin samye, sayankale panchavadane, samyakeva. Anya kopi asti va?
Ramya bhagini.
Ramya bhagini. Bhavati vadatu hastena.
Hastena, kena.
Kena. Kena, atava?
Kiya. Tritiya vibhakti.
Tritiya vibhakti, astu. So, atra, kim, kati, kutaha, kutra, kada, eta drisha prashnaha ekam asti, kalu? Kim, kutra, kati, kada, kutah, katam, kimartam?
Kim?
Kim, when you kim iti prashnaha asti chet hastena iti uttaram na agachati kalo. Kim asti hastaha asti. Kim pashyati hastam pashyami.
Katam?
Katam, katam. Katam kadati hastena kadami. Hastena kadami. Uttama. Hastena kadami. Astu. Anya kopi asti va? Na. Astu. Sagari bhagini. Anandena. Katam. Katam. Uttama. Katam.
Bhagini, the previous one, you cannot say kena, is it? Kena is wrong?
No, kena is fine. Kena is fine.
Because I had written down kena, so
yeah.
But you can use katam also, is it?
Yeah, in general we use katam bhagini.
Okay.
In general we use katam. Bhavati katam kadati, bhavati katam gachati. We don't say bhavati kena gachati. In general we don't. So just like how we don't usually say kasmin samaye. We just ask kada. Bhavati kada agachati, but kasmin samaye is not incorrect. Evam, so, evam, kena
is not wrong, but in general we should use katam.
In general people use katam. Bhavati, like, you know, we ask, how are you going to the shop? Bhavati katam apanam gachati. We don't say kena apanam gachati. Katam apanam gachati.
Okay.
So, then the kena is definitely used with saha. Kena saha apanam gachati. Kaya saha. Kena saha. At least this is how I do. Astu. For anandena, also katam.
Katam.
Katam kadati aham anandena kadami. Anandena kadami. Astu. Atra dukkham vina. महेश महोदय दुःखं विना
येन विना
येन येन विना सो अत्र दुःखं दुःखम् इति अस्ति खलु सो एतत् द्वितीया विभक्ति
आम् आं भगिनि कं विना
कं विना कं विना
कं विना द्वितीया विभक्ति
Actually, it goes this way. Kam vina dhitya vibhakti. And you are right, Mahodaya. If it is dukkena vina, kena vina.
Kena vina.
Kena vina.
We can also use katam also, no?
Katam. When we have we call all these upapada vibhakti. Vina and saha. So when we have this, it's better we use this also, like kena vina, kena saha, like that. So atra it is kam vina. Kam vina ka, dadati, dukkam vina dadati.
Excuse me, dukkam vina means without dukkam. I mean without
feeling sad that they are giving.
Without sadness. Okay.
Yeah. Without sadness, they give. Some people say, oh God, I have to give, right? So, like that. Without feeling bad, they're giving, they give. Anandena dukkam. I just wanted to bring all these Mahodaya. That's all. I just wanted to bring all the different aspects that we have learnt all through the year. That's the reason. Astu. Jyoti Bhagini?
Aam Bhagini.
Kasya Krite. Kasya Krite. Uttama. Kasya. So whenever we have the upapada vibhakti, it's good to use those things. Kasya krite. Uttama.
Shashti
vibhakti. This is the shashti vibhakti rupam. But when you add it with krite, what will it be?
Krite, it will become no. Kasya krite. 6-7 Bhagini?
No, it will become 4.
Oh yeah, with the who?
So the Kasya Krite gives the same meaning as Tasmai. So we have Chatrasya Krite, it will become Chatraya.
Bhagini, okay.
भगिनी अहं प्रश्नवाचकशब्द कस्मै लिखामि सम्यक् वा
कस्मै इस् आल्सो गुड् कस्य कृते सेम् एस् कस्मै
कस्मै ओके
कया भगिनि
नो कया इस् फार् स्त्रीलिङ्ग खलु नो वी केनाट् से कया अण्ड् आल्सो कया इस् तृतीया विभक्ति
छात्रस्य कृते इफ् ऐ पुट् इट् इन् द चतुर्थी इट् इस् छात्राय
छात्राय सो देर् देर् इट्स् नाट् कया बट् इट् इस् कस्मै
छात्राय सो
कया न लैक् रामाय बट् इट् इस् तस्मै श्रीगुरवे नमः
भगिनि विभक्ति वाट् इस् द रैट् आन्सर् इट् षष्टि आर् चतुर्थी भगिनि
चतुर्थि इट् बिकम्
छात्राय
सो द रूपं वि यूस् इस् षष्टि बट् वेन् वि एड् कृते इट् बिकम्स् चतुर्थि वि यूस् षष्टि बट् इट् बिकम्स् चतुर्थि अस्तु सो द नेक्स्ट् वन् श्रीनिवास महोदय चतुरस्य छात्रस्य कृते सो ऐ वुड् लैक् फार् दिस् वन् चतुरस्य
कीदृशछात्रस्य कृते
सो कीदृश बट् बिकास् इट् हेस् द स्य हौ विल् यु चेञ्ज् द कीदृश
कीदृशस्य छात्रस्य कृते
उत्तमं कीदृशस्य छात्र ऐ विल् फिक्स् आल् दिस् अण्ड् सेण्ड् इट् ओके कीदृशस्य कीदृशस्य छात्रस्य कृते
चतुर्थी
चतुर्थि चतुर्थि अस्तु सविता भगिनी छात्रायै
छात्रायै कस्यै
कस्यै यस्
कस्यै
कस्यै छात्रायै विभक्ति का भगिनी
चतुर्थि
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 चतुर्थि अस्तु सौन्दरं भगिनी
सुन्दर्यै छात्रायै कीदृश छात्रायै
सो कीदृश but we have the ending yai right I mean sundari yai
kasyai chatrayi
kidrushai you started with
kidrushai 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 chatrayi
kidrushai chatrayi okay kidrushai
chatrayi
chaturthi
chaturthi
astu narayana murthy mahodaya
लेखनार्थं किं प्रथमा द्वितीया
अत्र अर्थम् इति अस्ति खलु अर्थं
किमर्थं
किमर्थं किमर्थं
लेखनार्थं
किमर्थम् एण्ड् विभक्ति
किमर्थं द्वितीयं किमर्थं
चतुर्थि चतुर्थि
किमर्थं लेखनार्थं
लेखनार्थं लेखितुं लेखनाय सो वी केन् आल्सो से लेखनाय
किमर्थं कम्स् इट् इस् आल्वेस् चतुर्थि
आम् आल्वेस् चतुर्थि
किमर्थं
किमर्थं वी केन् आल्सो चेञ्ज् इट् टु लेखनाय सो इट् गिव्स् द रूपम् एस् चतुर्थि आल्सो लेखनाय पठनाय लेखितुं पठितुं
किमर्थम् ओन्लि क्वश्चन्
किमर्थम् ओके सो सो वी केन् लुक् एट् ईच् वर्ड् एण्ड् वी केन् फिगर् औट् द विभक्ति सो एनी क्वश्चन्स् इन् दिस्
कीदृशस्य दट् इस् I am able to understand the little better.
Astu, astu.
Chaturasya.
Chaturasya, Kidrishasya. I will go over it. Anything else? Astu. So, I'll go over the Kidrishasya now. So, we can use this class as a review class, okay? Please ask me any questions. Astu. अस्तु भगिनी वि हाव् द मूलरूपम् ओके कीदृश दट् इस् द मूलरूपम् इफ् इट् इस् पुल्लिङ्ग् अप् वि से कीदृशः कीदृशः बालकः So when you say ki, when it starts with ka or ki, it's a question. Ki drishaha balakaha. I say, chaturaha balakaha. Chaturaha balakaha. Because why it is always ending in aha, aha, aha? Because of balakaha. Chaturaha balakaha. Supposing it is balika, so the kidrish will become kidrishi. Kidrishi balika. This is because of the visheshana vishesha bhava. This is a visheshya balakaha. Because it is balakaha, the moola padam kidrisha must become kidrishaha. Kidrishaha balakaha. So here, the moola rupam of chaturaha is chatura eva. Chatura. Chatura became chaturaha because of balakaha. So if it is balika, chatura will become chatura. Chatura balika. Idanim, if we move to balakah, then how will it become? Balakah ki drishah. Balakah ki drishah balakah. Kimartam, kimartam itukte, because balakaha bahuvachana. Ataha kidrisha also bahuvachana. Kidrishaha balakaha. Idanim, balakasya. Balakasya iti asti chet khatam parivartanam bhavati. Kidrishasya. Kidrishasya balakasya yutakam. Kidrishasya balakasya yutakam. Same thing over here.
Chaturasya balak.
Chaturasya.
Chaturasya balakasya.
Chaturasya balakasya.
Balakasya yutakam.
Yutakam.
Astu bhagini.
Okay, so for a strilinga, how will it become? Supposing it is bahuvachana. Okay, because it is ikaranta kalo, lekani lekanyah. Kidrishi kidrishyah. Kidrishyah. Kidrishyah balikaha. Supposing I want to say chaturaha balikaha.
Chaturaha balikaha.
Chaturaha balikaha.
Chaturya.
Chaturya. No, chatur chaturya na agachati, because it is chatura eva. Chatura. But if it is sundari. Sundari balika. Bahuvachana.
Sundarya balika.
Sundaryaha balika.
Sundaryaha. Sundaryaha. Balikaha. Supposing it is Yuvati, how will you say Sundaryaha?
Yuvatyaha.
Yuvatyaha. Yeah. Not Yaha, Yuvatyaha. Sundaryaha Yuvatyaha. Supposing I want to ask a question, what type of Yuvatis?
Kidrishyaha Yuvatyaha.
Kidrishyaha Yuvatyaha. Okay, so this is how the Kidrishi thing works. Prashna Hava?
न भगिनि.
अस्तु. सो वि आल्सो डिड् द कामन् पेर्स् खलु. प्रश्नः अस्ति चेत् पृच्छन्तु. यदि तर्हि
भगिनी एकः प्रश्नः. हौ टु फैण्ड् द प्रातिपदिकम् आफ् वर्ड्स् भगिनि. बालकः बालक इति
इति अस्ति खलु. हौ टु फैण्ड् मीन्स् यु लुक् इन् द डिक्षनरि भगिनि. सो if I say balakah is not going to show balakah. If I put a visarga, let's see what happens. It just shows the balak. Okay, so this is the moola padam. If I write kidrishi, let's say it just shows kidrish kidrisha kidrish kidrisha eva, but sometimes they'll give you in a sentence kidrishi iyam bala. How is this girl?
Bagini. Whatever is in the dictionary then is only the moola pada. We can assume that.
सो अत्र गिवन् यू एक्साम्पल्स् कीदृशी इदं बाला. ऐ मीन् सारी इयं बाला. इदं कीदृशम्. इदं नपुंसकलिङ्गम्. इयं स्त्रीलिङ्गम्. वायुगुणः कीदृशः. वायु हौ इस् द वेदर्. वि जनरलि डोण्ट् यूस् दिस् टर्म् वायुगुणः. वातावरणं कीदृशम्. कीदृशः मार्गः. परन्तु द मूलपदम् इस् कीदृश, नाट् इवन् कीदृश्. कीदृश.
धन्यवादः.
अस्तु. अन्य उदाहरण.
महिला करोति वा भगिनि?
महिला करोमि. श्रीनिवास महोदय. आम् आम्. It's not 100% correct, but it's useful.
It gives the direction. It may not be 100% grammatically correct, correct, but it gives the idea of what it is.
Yes. Nischayena. Mahila. Mahila. Moola roopam api mahila eva. Atra pashyati. Sundari mahila. So they are giving clues also. अन्य उदाहरणं. पुस्तकं. पुस्तक एव. नदी. नदी एव. अस्तु.
धन्यवादः.
स्वागतम्. सो अत्र कामन् पेर्स् इति अस्ति. युगलम् अर्थं न जानन्ति चेत् पृच्छन्तु. यदि तर्हि. यदा तदा. यावत् तावत्. यदि वातावरणं सम्यक् अस्ति तर्हि बहिः गच्छामि. यदि समयः अस्ति अहं पठामि. साधारण. अस्तु. एकमेकं कुर्मः वा? नारायणमूर्ति अभवत्. परमेश्वर महोदय अपि अभवत् वा न वा? अस्तु. परमेश्वर महोदय, यदि यदि तर्हि उपयुज्य वाक्यं महोदय. यदि धनम् अस्ति किं करोति? महोदय अस्ति वा? यदि पुस्तकम् अस्ति किं करोति? पठामि. यदि पुस्तकम् अस्ति तर्हि पठामि.
यदि पुस्तकमस्ति तर्हि पठामि. यदि धनम् अस्ति तर्हि गाडी क्रीणामि.
कार्यानं क्रीणामि.
कार्यानं क्रीणामि.
कार्यानं क्रीणामि. अस्तु. यदा तदा गोपिका भगिनी, यदा तदा अथवा यावत् तावत् किमपि?
यदा इन्द्रधनुः भवति तदा अहं चित्रं स्वीकरोमि.
उत्तमं. तदा अहं चित्रं स्वीकरोमि. उत्तमं. अस्तु. रम्या भगिनी, यावत् तावत् यथा तथा किमपि अथवा किन्तु परन्तु प्रायशः निश्चयेन?
अहं क्रीडितुम् इच्छामि परन्तु क्रीडाङ्गणं न जानामि.
क्रीडाङ्गणं न गच्छामि. परन्तु क्रीडाङ्गणं न गच्छामि. सागरी भगिनी, कुत्र ध्वनिः आगच्छति? सागरी भगिनी, यावत् अस्तु
यदा भवती चेन्नै नगरे
चेन्नै नगरम् आगच्छति
तदा मम गृहम् आगच्छति खलु?
उत्तमं. निश्चयेन आगच्छामि खलु? किल ननु उत्तमं. निश्चयेन आगच्छामि. अस्तु. अन्य कोऽपि? महेश महोदय, यतः अतः?
शृणोति वा?
आम् निश्चयेन शृणोमि.
या संस्कृतपाठां पाठयति तस्याः नाम राधिका भगिनी.
उत्तमम्. ओ या सा. उत्तमम्. धन्यवादः. ज्योति भगिनी.
आं भगिनि, निश्चयेन.
निश्चयेन वदतु.
यदा वाट् टु से फार् मै नेव्यू नेफ्यू भगिनि स्वस्रे
फार् नेफ्यू विषये भागिनेयः. भागिनेयः
यदा मम भागिनेयः विवाहं
भागिनेयस्य
विवाहं इस् देर् निश्चयेन अहं भवति अहं निश्चयेन गच्छामि.
निश्चयेन गच्छामि. उत्तमं. गच्छामि अथवा गमिष्यामि किमपि किमपि.
ओके भगिनि,
धन्यवादः. श्रीनिवास महोदय, एनिथिङ्ग् यत् किमपि उपयोगं कृत्वा?
आं भगिनि, यद्यपि तथापि.
अस्तु.
यद्यपि समयः नास्ति तथापि अहं वर्गस्य आगच्छामि.
वर्गम् आगच्छामि. उत्तमं. यद्यपि समयः नास्ति तथापि वर्गम् आगच्छामि. यद्यपि स तथापि उत्तम. अस्तु सविता भगिनी.
यस् भगिनि.
यत् किमपि चिनोतु वदतु. अपेक्षया
सुग्रीवस्य अपेक्षया वालिः अति बलवान् अस्ति.
अति बलवान् अस्ति. सुग्रीवस्य अपेक्षया
वाली अति बलवान् अस्ति.
अति बलवान् अस्ति. उत्तमम्. अस्तु सौन्दरं भगिनि.
यावत् तावत्.
उत्तमम्.
यथा मम अनुजा पचति तथा अहं न पचामि कर्तुं न शक्नोमि.
यथा अहं न पचामि पर्याप्तम्. नो चेत् तथा अहं न पक्तुं शक्नोमि.
पक्तुं वा?
पक्तुं शक्नोमि.
पक्तुं
न
तथा अहं न पक्तुं शक्नोमि.
अथवा अहं पक्तुं न शक्नोमि. अहं पक्तुं न शक्नोमि. अस्तु उत्तम. नारायणमूर्तिमहोदय.
अहमेव अपेक्षयम्.
अपेक्षया. अस्तु
अपेक्षया. बेङ्गलूर् नगरम् अपेक्षया न्यूयार्क् नगरं बृहत् अस्ति.
अस्तु अत्र अपेक्षया उपयोगं करोति चेत् षष्ठी विभक्ति बेङ्गलूर् नगरस्य अपेक्षया. पुनः वदतु महोदय.
बेङ्गलूर् नगरस्य अपेक्षया न्यूयार्क् नगरं बृहदस्ति.
बृहत् अस्ति. उत्तमम्. अस्तु परमेश्वर महोदय.
यस् मेडम्. यथा विद्युत् नास्ति तथा दीपः न ज्वलति.
सो अत्र यथा तथा वा यदा तदा वा यदि तर्हि वा किम् आगच्छति? यथा
विद्युत् इस् नपुंसकलिङ्गम्.
No, it's not because of that. What do you want to say? Like, if or when or comparing
when,
to...
When.
When.
No
so, atra yada tada. Yada. Yada
okay. Vidyut. Yada vidyut nasti, tada deep na jwalati.
Deepaha
na jwalati.
Uttama.
Tada deepaha na jwalati.
Tada deepaha na jwalati. Astu. Uttama. गोपिका भगिनी अभवत् खलु? अभवत्. अस्तु अग्रे गच्छामः भगिनी. अग्रे गच्छामः. सो अत्र अन्यविषयाः सन्ति. अत्र च अपि एव इति एकविषयः, तः पर्यन्तम् इति अन्यविषयः, अद्य आरभ्य, श्वः आरभ्य, ह्यः आरभ्य, अपि च दिस् इस् काम्प्लिकेट् अद् बट् ह्यस्तन अद्यतन श्वस्तन गतमासे आगामिमासे इत्यादयः, बान्धवाः रुचिवाचकाः इत्यादि. सो एनिबडी हेव् एनी क्वश्चन्स्? ह्यस्तन अद्यतन उपयुज्य वाक्यं वदति वा गोपिका भगिनी? ह्यस्तन अथवा च अपि एव इति, तः पर्यन्तम्, अद्य आरभ्य, श्वः आरभ्य, गत आगामि.
ह्यस्तन नाटकं बहु उत्तमम् अस्ति.
उत्तमम्
अभवत्.
उत्तमम् आसीत् इति ह्यस्तननाटकं बहु उत्तमम् आसीत् ह्यस्तन भूतकालरूपम् उत्तमं भगिनि अस्तु रम्या भगिनि
गत आगामि
गत आगामि
गतवर्षे तिरुपतिदेवालयं गतवती
गतवती उत्तमं गतवती गतकाले भूतकाले उत्तमम् अस्तु सागरी भगिनी
मम पुत्रः पुत्री च मम गृहे वसति
अस्तु पुत्रः पुत्री च मम गृहे वसतः वसतः
दट्स् व्हाट् ऐ वाज़् नाट् श्योर् अबौट् द वर्ड् वसतः इस् इट् दट् इस् अ प्लूरल्
नो नो इट्स् नाट् प्लूरल् इट् इस् द्विवचनं
द्विवचनं ओ यस् ऐ डोण्ट् नो वि हव् नाट् लर्न् द्विवचनं ओके
या सो ऐ यूज़्लि टेल् पीपल् टु एड् वन् मोर् अण्ड् मेक् इट् बहुवचनं
लेट् मी डू दट् मम पुत्रः पुत्री अम्बा च मम गृहे वसति
मम गृहे वसति अस्तु महेश महोदय
अद्य आरभ्य अहं प्रातः योगासनं करोमि
उत्तमसङ्कल्पं खलु अद्य आरभ्य श्वः आरभ्य उत्तमम् अस्तु ज्योति भगिनि
आं भगिनि श्वस्तन
श्वस्तन
श्वस्तन टुमारो रैट् भगिनि
श्वस्तन
श्वस्तन प्रातःकालः मम गृहे
अत्र भगिनि
श्वः मम गृहे रिलेटिव्स् आर् कमिङ्ग् मीन्स्
बान्धवाः
आगच्छन्ति
अथवा आगमिष्यन्ति अस्तु श्वस्तन अद्यतन ह्यस्तन इति उपयोगं कुर्मः चेत् एतत् षष्टिविभक्तिरूपवत् इत्युक्ते अन्य किमपि योजनीयं ह्यस्तनकार्यक्रमः अद्यतनवर्गः अद्यतनवर्गे श्वस्तनवर्गे इत्यादि एवमेव गत इति उपयोगं कुर्मः चेत् अपि गतवर्षे गतमासे केवलं गत अहं गच्छामि अहं गतवती इति सम्यक् नास्ति गतमासे अहं गतवती आगामि मासे इति एवमेव अत्र एव अपि कुत्र उपयोगं कुर्मः इति मुख्यविषयः छात्राः एव गच्छन्ति छात्राः रामः एव खादति रामः फलम् एव खादति अवगच्छन्ति वा भेदः कः इति अस्तु महोदय पुनः वदतु निश्चयेन
अद्यतन
कुदुकुला भविष्यति क्रीडा खलु कुदुकुला भविष्यति उत्तम
विल् बी इण्ट्रेस्टिङ्ग् राइट
आम् आम् निश्चयेन निश्चयेन
नो ट्रान्स्लेशन् विल् बी इण्ट्रेस्टिङ्ग्
विल् बी इण्ट्रेस्टिङ्ग् यस् और् अस्ति मीन्स् इट् इस् इण्ट्रेस्टिङ्ग् कुदुकुला अस्ति विल् बी इण्ट्रेस्टिङ्ग् अस्तु
भगिनी केन् यू ट्रै सेण्टेन्स्
भगिनि एकनिमिषम् अन्य कोऽपि वक्तुम् इच्छति इति अन्य
नारायणमूर्ति मेडम् आल्सो ऐ विल् आल्सो सेण्टेन्स् अद्यतन मध्याह्ने चेन्नैनगरे बालसुब्रह्मण्यं मृतवन्तः
आम् महोदय
मृतवन्तः इति
बालसुब्रह्मण्यः मृतः मृतः मृतवान् मेबि मृतवान्
मृतवान् अद्यतन मध्याह्ने चेन्नैनगरे बालसुब्रह्मण्यं मृतवान्
सो अत्र अद्य मध्याह्ने एव अद्य मध्याह्ने
अद्यतन
नो वेन् यु से अद्यतन यु हाव् टु टाक् अबौट् संथिङ्ग् अद्यतन वार्ता अद्यतनवार्तायाम् अहं श्रुतवान् यत् एस् पि बालसुब्रह्मण्यमहोदयः मृतवान् इति लैक् देट् अद्यतनपाकम् अद्यतन वर्गः लैक् देट् अद्यतनकार्यक्रमः अद्यतन संथिङ्ग्
That is today, isn't it?
Today. Yeah. Adhyatana Varta. Adhyatana News. Adhyatana Vishayaha.
So it will be only Adhya Madhyahne.
Adhya Madhyahne. Or you say Adhyatana Vishayaha Aham Vadami. Adhyatana Vishayam Vadami.
Vadami. Adhya Madhyahne.
Then you can say Adhya Madhyahne.
Chennai Nagare Blas. Okay.
Astha. अस्तु भगिनी वदतु इदानीं
भगिनि अद्य सायङ्काले सार्धसप्तवादने सि एस् के डेल्लि केपिटल्स् मध्ये क्रिकेट् क्रीडां सन्ति
क्रिकेट् क्रीडा भवति क्रिकेट् क्रीडा भवति अथवा भविष्यति
इस् इट् करेक्ट्
करेक्ट्
भगिनि वन् मोर् सेण्टेन्स् देर् वास् यक्षगान प्रोग्राम् इन् मै मदर्स् हौस् यस्टर्डे सो फोर् देट् ऐ केन् टेल् ह्यस्तन यक्षगान कार्यक्रमः रैट् अम्बा गृहे ह्यस्तन यक्षगान
अम्बायाः गृहे
अम्बायाः गृहे ह्यस्तन यक्षगान कार्यक्रमः बहु सम्यक् अभवत्
उत्तमं बहु उत्तमम् अस्तु भगिनि वदतु इदानीं
क्षम्यतां भगिनि अद्यतनवर्गे मम नेट्वर्क् सम्यक् न कार्यं न करोति क्षम्यताम् ऐ विल् टेल्
वदतु भगिनि
अद्यतन संस्कृतभाषायाः वर्गः पञ्चवादनतः अर्धषड्वादनपर्यन्तं भवति
सार्धषड्वादनपर्यन्तं
भवति
उत्तमं भगिनि अस्तु सर्वे अवगच्छन्ति चेत् अन्यविषयं प्रति गच्छामः अस्तु अत्र क्रियापदरूपाणि खलु सः पठति ते पठन्ति सा पठति ताः पठन्ति समानरूपं खलु भवान् पठति भवती पठति भवन्तः पठन्ति अहं पठामि वयं पठामः एतत् वर्तमानकालः वर्तमानकालः आज्ञा प्रार्थना भवान् पठतु भवन्तः पठन्तु अत्र दोषः अस्ति भवति भवती पठतु भवत्यः पठन्तु भविष्यत्काल पठिष्यति पठिष्यन्ति पठिष्यामि पठिष्यामः भूतकाल पुल्लिङ्गे पठितवान् पठितवन्तः पठितवती पठितवत्यः अहम् अहमपि स्त्रीलिङ्ग पुल्लिङ्ग इति अनुसृत्य एव वयं वदामः अहं पठितवती वयं पठितवत्यः पुल्लिङ्गे पठितवान् पठितवन्तः अस्तु अन्य किम् अस्ति स्म इति स्म उपयोगं कुर्मः चेत् पास्ट् कण्टिन्यूस् तात्कालिकभूतकाल इति वदामः तात्कालिकभूतकाल वाट् वास् हेपनिङ्ग् अट् दट् टैम् लैक् दट् तात्कालिकभूतकाल सो अत्र यु हाव् टु सेट् द सीन् यदा अहं मम गृहं गतवती तदा मम पुत्रः गृहपाठं करोति स्म मम पुत्रः करोति स्म इति वदामः चेत् भूतकाल तात्कालिकभूतकाल दट् इस् पास्ट् कण्टिन्यूस् परन्तु स्म इति उपयोगं कुर्मः चेत् अन्य अर्थः अपि भवति बाल्यकाले अहं कथापुस्तकानि एव पठामि स्म अत्रापि अहं पठामि वर्तमानकाल अहं पठामि स्म भूतकाल तात्कालिकभूतकाल बाल्यकाले इति वदामः अथवा यदा अहं तत्र गतवती तदा इति अपि उपयोगं कर्तुं शक्नुमः अन्य अस्ति भूतकाल खलु सः ग्रन्थालयं गत्वा पुस्तकं पठति प्रथमक्रियापदं गच्छति इति अस्ति सः ग्रन्थालयं गच्छति पुस्तकं पठति प्रथमकार्यं पूरयित्वा द्वितीयकार्यं करोति अतः यत् कार्यं पूरितवान् तस्य रूपं त्वान्तरूपं भवति त्वान्तरूपं गत्वा अत्र द्वितीयक्रियापदं स्वीकृत्य किमर्थं गच्छति पठितुं ग्रन्थालयं गच्छति तावदेव विषयः क्रियापदविषयः प्रश्नाः सन्ति वा
भगिनि हौ डु वि से टु पैरलल एक्टिविटीज
लैक् वैल् डूयिङ्ग् दिस् ऐ वास् डूयिङ्ग् दट् yeah so that we haven't learnt yet but for pullinga supposing you want to say aham patan as I am reading my book I eat aham patan
I watch tv and eat
astu aham duradarshanam pashyami tata samaye eva aham khadami right so you can say aham दूरदर्शनं पश्यन् खादामि पश्यन् अहं दूरदर्शनं पश्यन् खादामि सो वि विल् नाट् लर्न् दिस् नो वि विल् नाट् लर्न् दिस् अण्टिल् द थर्ड् लेवल् सो वि आर् इन् द फस्ट् लेवल् सेकेण्ड् लेवल् यु विल् डु संथिङ्ग् मे बि इवन् फोर्थ् लेवल् नाट् इवन् थर्ड् फोर्थ् लेवल् यु विल् लर्न् दट् बट् द सिम्पल् वे इस् अहं पश्यन् खादामि फार् एस् स्त्रीलिङ्ग इट् चेञ्जस् टु पश्यन्ती खादामि अहं दूरदर्शनं पश्यन्ती खादामि अस्तु
भगिनि केन् वि से ह्यः अहं पुस्तकं पठामि स्म केन् इट् बि यूस्ड् लैक् देट्
No, but you have to say one specific time, like yada I don't know varga samayah asti tata, like
simple past tense we cannot use it,
simple not past like tense. That begin no
astu dhanyavada
astu. So if you don't have any questions, we will do something called ashubhashana. Ashubhashanam ittikte, we think of a topic and just say 5 or 6 sentences. Udaharanartham, pushpam iti asti ched. Gopika bhagini, pancha vakyani vadatu pushpam.
Aam bhagini.
ओ अम्बा अपि अस्ति
पुष्पाणि पुष्पाणि उद्याने सन्ति मम इष्टपुष्पं कमलं कमला कमले शेते अपि इति अपि एकं सुभाषितम् अपि अस्ति तत्रैव मा लक्ष्मीः वसति.
उत्तमं भगिनि, धन्यवादः. अस्तु,
धन्यवादः.
इदानीमेव अहं पश्यामि मम अम्बा अस्ति, स्वागतम् अम्ब, अपि च उषा भगिनी अपि अस्ति. स्वागतम् उषा भगिनि, इदानीमेव पश्यामि. अस्तु, अन्य का वदति, का वक्तुम् इच्छति? पुस्तकम् इति पदं स्वीकृत्य. अस्तु अस्तु महोदय, वदतु.
अहं पुस्तकं पठितुम् इच्छामि.
मम कृते
I get knowledge from the book. अहं पुस्तकेन ज्ञानं प्राप्नोति.
पुस्तकतः
ज्ञानं ज्ञानं प्राप्नोमि.
उत्तमम्.
ओके, अनेक अनेक विषयाणि पुस्तके सन्ति.
अनेक विषयाः पुस्तके सन्ति. उत्तमम्.
विषयाः अनेक विषयाः पुस्तके सन्ति.
इदानीन्तनकाले
पुस्तकं कम्प्यूटर् मध्ये अपि अस्ति.
कम्प्यूटर् मध्ये अपि अस्ति. अस्तु, उत्तमम्.
दट् इस् अ डिजिटल् फार्म्, सो ऐ डोण्ट् कुक्ड् अप् समथिङ्ग्. बुक्स् आर् द बेस्ट् इन्वेस्ट्मेण्ट् दट् यू केन् मेक्.
ओ उत्तमम्.
पुस्तकं सर्वश्रेष्ठ
वि केन् काल् इट् सोत् नो लैक् इन्वेस्ट्मेण्ट् इस् लैक् समथिङ्ग् दट् वि वेल्यू अस्माकं
पुस्तकं सर्वश्रेष्ठ सम्पत्ति अस्ति.
सम्पत्ति अस्ति. उत्तमं महोदय, सम्पत्ति अस्ति, बहु उत्तमम्. अस्तु, नदी इति पदम्.
पुस्तकं हस्तभूषणम् एव
पुस्तकं हस्तस्य हस्तभूषणं पुस्तकम् अस्तु महोदय भवान् एव वदतु नारायणमूर्ति महोदय कार्यानम्
कार्यानम् अद्य काले कार्यानम् अति मूल्यम् अस्ति
अद्यतनकाले कार्यानम् कार्यानस्य मूल्यम् अधिकम् अस्ति अस्तु
अधिकम् अस्ति कार्यानं बहु उपयोगम् एव
उपयोगमेव
उपयोगमेव अतः प्रति गृहे एव्री हौस् सर्वगृहे अतः सर्वगृहे एकं या द्वे कार्यानं सन्ति
एकम् अथवा द्वे कार्याणि स्तः अस्तु
कार्याणि सन्ति
अस्ति स्तः अस्तु अथवा कार्यानद्वयम् अस्ति कार्यानद्वयं वा एकं वा कार्यानद्वयं वा अस्ति अस्तु
अद्यतः कार्यानाः बहु सुन्दरं सन्ति
अद्यतनकार्यानानि बहु सुन्दराणि सन्ति कार्यानानि बहु सुन्दराणि सन्ति उत्तमं महोदय अन्य का वक्तुमिच्छति
भगिनि केन चाय् भारतदेशः
भारतदेशः अस्तु
मम भारतदेशः मम गर्वः भारतदेशे बहु प्रसिद्ध देवालयानि सन्ति देवालयाः सन्ति भारतदेशः वेद उपनिषद् प्रसिद्धः भारतदेशस्य राष्ट्रीयप्राणी व्याघ्रः राष्ट्रीयपक्षी मयूरः
उत्तमं भगिनि
देन् वाट् नेशनल् एन्थम् राष्ट्रीयगान जनगणमनः रवीन्द्रनाथ टागोर् महोदयः रचितवान्
उत्तमं
थैंक यू भगिनि
धन्यवादः धन्यवादः अन्य का वक्तुम् इच्छति अथवा कः वक्तुम् इच्छति
भगिनि शरेट् रै
वदतु भगिनि
देवालयः
अस्तु
मम गृहसमीपे एकः देवालयम् अस्ति
मम गृहस्य समीपे देवालयः
अस्ति अहं प्रतिदिनं देवालयं
गच्छामि
देवालयः देवालयात् or is it that possible
devalayat
ganeshah marutih durga what is idols called bhagini
vigraha
asti
devalayat na atra devalaye devalaye
devalaye
ganeshah
marutih durga च शिवस्य विग्रहः अस्ति
विग्रहाः सन्ति
सन्ति
विग्रहः विग्रहाः सन्ति उत्तमम्
प्रतिदिनं भक्ताः देवालयं गच्छति
गच्छन्ति खलु भक्ताः उत्तमं भगिनि
भक्ताः गच्छन्ति
उत्तमं बहु उत्तमम् अन्य का वक्तुम् इच्छति
अहं
उषा भगिनी किमपि वदति वा भगिनी न उक्तवती अस्तु अम्बा वक्तुम् इच्छति वा भवती अपि न उक्तवती किमपि
my
worksheet bhagini
what is the book we are following now
abhyasa darshini
okay
abhyasa darshini okay so let me take the time to introduce that book ek nimish
yeah I have the book
you have the book book nasti chet we have the kindle version also
oh where is that
I sent you the link in the
mail
yeah not mail in the
whatsapp
yeah in the whatsapp so atra abhyasa darshini mahodaya vadatu
pdf version is comfortable
aama pdf version yeah so I have sent the link for the kindle version okay so you can just get it from there so we start off with mama bhavatah bhavatyah so every chapter has like a sambhashana so in the sambhashana we have all these things bhavatyah mama lekhani mama pustakam and they have the vishesham what is it that we have to be so whatever we learnt in abhyasa pustakam we will be reviewing that but we will also be doing bahuvachanam api patamah atra abhyasah santi vayam agre agre gachamah atra yes
so other teachers are doing Gita Sopanam that is different
oh yeah that is very different so let me show you the Gita Sopanam also
yeah I tried to order it they were out of stock
yeah
is there a version here a PDF or anything like that
no this yeah. is just for my use I have it the PDF version yeah but
can we get a PDF version Bhagini
I'm not supposed to share Bhagini you know I'm not supposed to share
on the internet can we not get find it
I'm not sure
I tried looking I didn't get it
yeah right so atra api we start off with mama bhavatah bhavatyah but what happens is in Gita in abhyasa darshini we only learn about akaraanta ikaraanta aakaraanta and napumsakalinga padam same like what we have learnt now krishna mala nalini mitra in Gita sopanam let me show you this is a very big leap Bhagini
oh
yeah let me just show you all the things you have to so we start off with ekavachanam dvivachanam bahuvachanam
no hari Bhagini go in our own
space exactly this is what I thought because there is no need to confuse ourselves now so kavihi so we go with ikaranta kavihi kavi kavayah and then you have to master this one
because it slowly settle in the mind it's going to take time the new yeah. language is not going to come in overnight
correct
it's going to our own speed
yes so different teachers have chosen different paths so this is what I think we should do abhyasa darshini but I will bring in the aspects of vibhakti vallari also in okay. abhyasa darshini
Yeah. Okay, I have the Vibhaktam only.
Yeah. So I will bring in the all the things mentioned in the Vibhakti Vallari also.
Okay.
So all these, it could be confusing. You know why? Because kavihi kavi kavaiha, that is ikaranta pullinga padam. But we also have ikaranta strilinga padam also. Matihi mati matayaha. Titihi titi titayaha. Munihi muni munayaha. So this is, I don't think so now. Abhyasa Darshini is good. So I also have the Vibhakti Vallari. So we will do a combination of Abhyasa Darshini and Vibhakti Vallari. For example, in Abhyasa Darshini, the first chapter, that is, we have Shashti Vibhakti, Tasya, Etasya, Kasya. Vibhakti Vallaryam Kutra Asti Iti Pashyamaha Tritiya. So Atra Shashti Vibhakti Asti Sambandham Drishyate Sambandha. So that is one aspect. Then we have Bahuvachanam Pandavaha. Krishna ha Pandavanam Rakshakaha. So this will be very good for us, I think. So there is one teacher who is doing Vibhakti Vallari. There are teachers, one teacher is doing Gita Sopanam. And I think two are doing Abhyasa Darshini, including me.
So Vibhakti Vallari, are there parts or only one book?
Only one book.
Okay, so I was looking at the first page. Mine says Dvitiya Vibhakti, right?
Yes. That's it starts with
Dvitiya. Okay.
Yeah, it starts with Dvitiya.
Okay.
Do you have to buy this book also?
Vibhakti Vallari, not necessary. If you want to, you buy it. But you know, I'll just bring in the things from Vibhakti Vallari. The aspects I will bring into our lesson. But if you want to buy Vibhakti Vallari, it's a very useful book. Definitely useful.
Vibhakti Vallari, no?
Vibhakti Vallari.
Okay, because Abhyasa Darshini I got.
Yeah. So this is the book, Vibhakti Vallari.
Vibhakti Vallari.
Out to shops for 6 months now.
No, you can order it online. You can order it online.
Got it. But
yeah, I got this Samskrita Bharati, Bangalore.
Yeah.
Mm-hmm. I got this Abhyasa Darshini today.
Yeah.
Can you send those what you showed us, Bhagini?
Yes, definitely.
You know, where you have summarized everything.
Yeah, definitely. I think I already sent this, right? This one.
Yeah, this one.
I sent this. The only thing I didn't send was this one, miscellaneous.
This one you haven't sent. No, I haven't sent it. So, as we finish this class, I would like to thank you on behalf of all of us. We really enjoyed being in your class. And
Dhanyavad,
looking forward to continuing this journey with you. And one day I will be able to say all this in Sanskrit.
Madam, is it the last class of this session?
Yeah, this is the last class for Abhyasa Pustakam, but next week we will continue with Abhyasa Darshini. So it's like as if it's not.
So that is same time, same time?
Everything same.
Okay.
Is it right to say, Kevalam Pustakam Katam, Samapanam Asti, Vargaha Samaptam Nasti.
Ah, निश्चयेन पुस्तकमेव पुस्तकस्य समापनमेव कृतवन्तः वयं वर्गस्य समापनं न वर्गः अग्रे अग्रे सन्ति एव वर्गाः वर्गाः सन्ति कुत्र कदा समानरूपमेव कुत्र सन्ति कम्प्यूटर् मार्गमेन सङ्गणकमार्गे विदौट् द कम्प्यूटर् हौ केन् वी डू आल् दिस् डेफिनेट्लि नाट् दिस् इस् रियलि वेरि अमेजिङ्ग् अण्ड् वि रियलि हेव् टु थेङ्क् दट् फ्री कान्फरेन्स् काल् डाट् काम् फार् एनेबलिङ्ग् दिस् विदौट् एनी मनी यु नो नथिङ्ग्
people work in Skype also, Zoom also, everything works. This is much, much simpler. It consumes less power also.
Correct, correct. Because there is no video, no? So it's very good. Astu tarhi
Bhagini, there is no Visa Sopanam in the Amazon?
I will check Bhagini. I will check. I don't think so, at least. I don't know.
What is this book, Bhasha Vagahini? Bhasha Vagahini.
I do not know that book.
Okay.
This is the first time I'm also looking at it.
Oh.
Astu Viramama. शान्तिमन्त्रं वदामः ॐ सर्वे भवन्तु सुखिनः सर्वे निरामया श्रीगुरुभ्यो धन्यवादः
धन्यवादः
धन्यवादः धन्यवादः.